इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य स्वीय संसदीय क्षेत्रे वाराणस्यां प्रायः एकषष्टिः शत कोटि रूप्यकाणां विभिन्नानां विकास परियोजनानां आरम्भं करिष्यति। सः प्रायः द्विवादने काश्यां प्राप्स्यति। आरजे शंकर नेत्र चिकित्सालयस्य च उद्घाटनं करिष्यति। तदनन्तरं प्रायः सायं सपाद चतुर्वादने वाराणस्याः सिगरा क्रीडांगणे बहुविध विकास परियोजनानां उद्घाटनं कृत्वा आधारशिलां च स्थापयिष्यति। प्रधानमन्त्रिणा उद्घाटिते अस्मिन् चिकित्सालये नेत्रस्य बहुविध रोगाणां व्यापक परामर्शः उपचारश्च भविष्यति। प्रधानमन्त्री अस्मिन् अवसरे जनसभाम् अपि सम्बोधयिष्यति। नवदिल्ल्यां प्रचल्यमाणायां विश्व दूर संचार मानकीकरण सभायां WTSA इत्यस्याम् अन्ताराष्ट्रिय दूर संचार संघस्य ITU इत्यस्य मानकीकरण क्षेत्रस्य ITU-T इत्यस्य सर्वेषु दशषु अध्ययन समूहेषु नेतृत्व पदेषु भारतस्य अभ्यर्थिनः निर्वाचिताः सन्ति। अध्ययन समूहेषु परिचालनम् आर्थिक नीतिगत समाह्वानानि सुरक्षा इत्यादीनि च सम्मिलितानि सन्ति। संचार मन्त्रालयेन विज्ञप्तौ उक्तं यत् भारतेन एकस्मिन् समूहे अध्यक्ष पदं धारितम् अस्ति तथा च अन्येषु सर्वेषु नव अध्ययन समूहेषु उपाध्यक्ष पदं प्राप्तम्। संयुक्त राष्ट्र संघस्य मानवाधिकार समित्याः विस्तृत प्रतिवेदने उक्तं यत् पाकिस्ताने धार्मिक असहिष्णुतायाः प्रसारः हिन्दू ईसाई अल्पसंख्यक बालिकानां बलात् अपहरणं धर्मान्तरणं च वार्तावाहिन्याः विरोधः अभिव्यक्ति स्वातन्त्र्यं च इत्यादिषु विषयेषु गम्भीराः चिन्ताः उत्पन्नाः सन्ति। संयुक्तराष्ट्रसंघस्य समितिः पाकिस्तान सर्वकारस्य सिया मुस्लिम ईसाई अहमदी हिन्दू सिख जनानाम् उपरि वर्धमानान् आक्रमणान् निवारणाय असमर्थतायाः विषयेऽपि प्रश्न उत्थापिताः सन्ति। कश्मीरोत्पत्यकायाम् अद्य श्रीनगरे प्रथमवारम् अन्ताराष्ट्रिय मैराथन् धावनस्य आयोजनं भविष्यति। अस्मिन् बृहत् कार्यक्रमे 2000 यावत् प्रतिभागिनः सहभागितां करिष्यन्ति, येषु विदेशेभ्यः ऊनषष्ठिः क्रीडकाः अपि भागं गृह्णन्ति। क्रीडकाः द्विचत्वारिंशत् किलोमीटर परिमिते पूर्ण मैराथने, एकविंशतिः किलोमीटर परिमिते अर्धमैराथने च धावनं करिष्यन्ति। जम्मूकश्मीरस्य पर्यटन निदेशकः राजा याकूब फारूखः अवदत् यत् प्रतिभागिनः 29 राज्यानां केन्द्रशासित प्रदेशानां 13 देशानां च सन्ति। अद्य प्रातः 5:44 जवाहरलाल नेहरू इति क्रीडांगणे दिल्ली हाफ मैराथनेत्यस्य धावन प्रतिस्पर्धायाः आरम्भः अभवत्। हाफ मैराथने सम्मिलितानि मार्गाणि भीष्म पितामह मार्गम्, लोधी मार्गम्, मथुरा मार्गम्, सी हेक्सागन मार्गम्, कर्तव्य मार्गम्, रफी मार्गम्, संसद मार्गम् च सम्मिलितानि सन्ति। हाफ मैराथन क्रीडांगण परिसरस्य बहिः समाप्तं भविष्यति। एतद्दृष्ट्वा दिल्ली मध्य देहल्योः प्रातः 11 पर्यन्तं प्रायः 6 पर्यन्तं यातायात प्रभावितं भविष्यति। महिलानां 20-प्रतिविंशतिः क्रिकेट विश्वचषक प्रतिस्पर्धायाः निर्णायकद्वन्द्वे अद्य सायं दुबई अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे न्यूजीलैंड दलं दक्षिणाफ्रीका दलं सम्मुखी करिष्यति। इति वार्ताः।